तृतीय स्कंध
तो चतुर्दशोध्याय दीति का गर्भधारण। श्री शुका उवाच निशम्य कौसारमणोपवर्णिता हरे कथा कारण शुकरात्मन पुनः सपप्रच्छ तमुद्यतांजलिर्नचा तृप्त विदुरो धृतव्रत। विदुर उवाच तेनैव तु मुनिश्रेष्ठ हरिण यज्ञमूर्तिना आदिदैत्यो हिरण्याक्षो हत इत्यनु शुश्रुम तस्य चोद्धरतर्क्षोणीं स्वदंष्टाग्रेण लीलया दैत्यराजस्य च ब्रह्मन् कस्माद् हेतोरभुन्मृधः। मैत्रे उवाच साधुवीर त्वया पृष्टम् अवतार कथाम् हरेः यत्त्वम् पृच्छसि मर्त्यानाम् मृत्युपाशविशातनीम् ययोत्तानपदः पुत्रो मुनिना गीतयार्भकः मृत्योः कृतैव मूर्ध्न्यम् ह्रीम् आरोह हरेः पदम्। अथात्रापीतिहासोऽयम् श्रुतो मे वर्णितः पुरा ब्रह्मणा देवदेवेन देवानामनुपृच्छताम् द्वितीर्दक्षायणी छत्तरमारीचम् कश्यपम् पतिम् अपत्यकामचक्सन्ध्यायाम् हृच्छयार्दिता इष्ट्वाग्निजिह्वम् पयसा पुरुषम् जजुषाम् पतिम् निम्लोच्यत्यर्क आसीनाम् अग्न्यागारे समाहितम्। द्वितीर्वाच एष माम् त्वत्कृते विद्वन् कामा आत्सरासनः दुनोति दीनाम् विक्रम्य रम्भामिव मतङ्गजः तद्भवान् दह्यमानानाम् सपत्नीनाम् समृद्धिभिः प्रजावतीनाम् भद्रन्ते मय्या युक्तामनुग्रहम्। भर्तर्याप्तोरुमानानाम् लोकानाम् विषतेजसः पतिर्भवद्विधोजासाम् प्रजयाननु जायते पुरा पितानम् भगवान् दक्षो दुहेत्रिवत्सलः कम् वृणीतवरम् वत्स इत्यपृच्छत नः पृथक्। स विदित्वात्मजानाम् नो भावम् सन्तानभावनः त्रयोदशाददार्तासाम् जास्ते शीलमनुवृतः। अथ मे कुरु कल्याण कामम् कञ्जविलोचन आर्तोपसर्पणम् भूमन् अमोघम् हि महीयसी इति ताम् वीरमारीच कृपणाम् बहुभाषणम् प्रत्याहानुनयनवाच प्रवृद्धानङ्ग कस्मलाम्। एषत्यहम् विधास्यामि प्रियम् भीरुजदिच्छसि तस्याः कामम् न कः कुर्या सिद्धिस्तरे वर्गिकीजतः। सर्वाश्रमानुपादाय स्वाश्रमेण कलत्रवान् व्यसनारणमत्येति जलया निर्जथारणम् यामाहुरात्मनो ह्यर्धम् श्रेयस्कामस्य मानिनी यस्याम् स्वधुरम् अध्यस्य पुमांश्चरति विज्वरः। जामाश्रित्येन्द्रियारातिम् दुर्जया नितराश्रमहि वयम् जयेम हेलाभिर्दस्यम् दुर्गपतिर्यथा। न वयम् प्रहुवस्ताम् त्वाम् अनुक्रतुम् गृहेश्वरि अप्यायुषा वा कार्ष्णेन ये चान्ये गुणगृह्णवः अथापि काममेतम् ते प्रजाते कर्माण्यलम् यथा माम् नाति वोचन्ति मुहूर्तम् प्रतिपालय। एषा घोरतमा वेला घोराणाम् घोरदर्शना चरन्ति यस्याम् भूतानि भूतेशानुचराणि ह एतस्याम् साध्वी सन्ध्यायाम् भगवान् भूतभावनः परितो भूतपर्षद्भिर्वृषेणाटतिभूतराट् श्मशान चक्रानिलधूलधूम्रा विकीर्ण विद्युत जटा कलापः भस्मावगुण्ठा मलरुक्म देहो देवस्त्रिभिः पश्यति देवरस्ते निजस्य लोके स्वजनः परो वा नत्या धृतो नोत कश्चिद् विगर्ह्य वयम् व्रतैज चरणापविद्धाम् आशा स्महेजाम्बत भुक्तभोगाम्। यस्यान्वद्याचरितम् मनीषिणो गृणन्त विद्यापटलम् विभित्सवः निरस्त साम्याति सयोऽपि यत्स्वयम् पिशाच चर्जामचरद्गतिः सताम् हसन्ति यस्य चरितम् हि दुर्भगः स्वात्मन् रतस्य विद्स समीहितः जैर्वस्त्रमाल्याभरणानुलेपनैः स्वभोजनम् स्वात्मतयोपलालितम्। ब्रह्मादयो यत्कृतसेतुपाला यत्कारणम् विश्वमिदम् च माया आज्ञा करी तस्य पिशाचर्या अहो विहुम्नश्चरितं विडम्बनम् नेत्रे उवाच सैवं संविदिते भर्त्रा मन्मथोन्मथितेन्द्रिया जग्राहवासो ब्रह्मर्षे वृषलीव गतत्रपा स विदित्वाथ भार्यायास्तं निर्बन्धं विकर्मणि न त्वदृष्टाय रहसि तयाथोपविवेशः अथोपविश्य सलिलं प्राणान् आयम्य वाग्जतः ध्यानजापविरजं ब्रह्मज्योतिषनाथनम् दितिस्तु व्रीडिता तेन कर्मवद्येन भारत उपसङ्गम्य विप्रसिम् अधो मुख्यभ्यभाषत दितिरुवाच मा मे गर्भिमं ब्रह्मन् भूतानां ऋषभो वधित् रुद्रः पतिर्हि भूतानां जस्या करवमङ्घसम् नमो रुद्राय महते देवायोग्राय मीढुषे इवाय न्यस्तु दण्डाय दण्डाय मन्यवे शरणः प्रसीदताम् भामं भगवान् उरुवनुग्रह व्याधस्यापि न कम्प्यानां स्त्रीणां देवः सती पतिः नेत्रे उवाच स्वसर्गस्यासि संलोक्याम् आशासानं प्रवेपतिम् निवृत्तसन्ध्यानिमो भार्यामः प्रजापतिः कश्यप उवाच अप्रायत्यादात्मनस्ते दोषान् मुहूर्तिकादुत मन्निदेशार्तिचारेण देवानां चाति हेलनद् भविष्यतस्तव अभद्रौ अभद्रे जाठराधमौ लोकान् सपालान् स्त्रिञ्चण्डी मुहुराक्रन्दयिष्यतः प्राणिनां हन्यमानानां दीनानां कृतागसाम् स्त्रीणां निगृह्यमाणानां कोपितेषु महात्मसु तदा विश्वेश्वरः क्रुद्ध भगवान् लोकभावनः हनिश्चत्यवतीर्यासौ यथा द्विंशत पर्वधृक् नितिर्वाच वधं भगवता साक्षात् सुनार्होदार बाहुना आशा से पुत्रैर्मह्यं मा क्रुद्धाद् ब्राह्मणाद्विहो न ब्रह्मदण्ड दग्धस्य न भूत भयदस्य च नारकाश्चानुगृह्णन्ति यं यं योनिमसौ गतः कश्यप उवाच कृतशोकान् तापेन सद्यः प्रत्यवमर्शनात् भगवत्तुर्मानच्च भवे मय्यपि चादरात् पुत्रस्यैव तु पुत्राणां भवितैकः सतां मतः गास्यन्ति यज्जसः शुद्धं भगवज्जस्सा समम् योगैर्हेमेव दुर्वरणं भावयिष्यन्ति साधवः निर्वैराद्भिरात्मानं यच्छीलमनुवर्तितुम् यत्प्रसादादिदं विश्वं प्रसीदति यदात्मकम् स स्वदृग् भगवान् यस्य तुष्यते नन्ययादृश स वै महाभागवतो महात्मा महानुभावो महतामहिष्टः प्रवृद्धभक्त्या हिनुभाविताशे निवेश्य वैभवमिमं विहास्यति अलं पटः शूलधरो गुणाकरो हृष्टः प्रार्ध्या व्यथितो दुःखितेषु अभूत् शत्रु जगतः शोकहर्ता नैदाघिकं तापिमिवोडुराजः अन्तर्बहिश्चामलमब्जनेत्रं स्वपुरुषेच्छानुगृहीतरूपं पौत्रस्तव श्रीललनाललामं द्रष्टा स्फुरत्कुण्डलमण्डितानं मैत्रे उवाच श्रुत्वा भागवतं पौत्रम् अमोदत दतिर्भृशं पुत्रेश्च वधं कृष्णान् विदित्वा श्रीमहामनः इति श्रीमद्भागवते महापुराणे परमहंस्यां संहितायां तृतीय स्कन्धे द्वितीय कश्यप संवादे चतुर्दशोऽध्यायः हरे कृष्ण 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 हरे 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 राम 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 हरे हरे।